ಸ್ವಯಂಭುವೇ ನಮಸ್ತುಭ್ಯ ಮುತ್ಪಾದ್ಯಾತ್ಮಾನಮಾತ್ಮನಿ ಸ್ವಾತ್ಮನೈವ ತಥೋದ್ಭೂತ ವೃತ್ತಯೇ ಚಿಂತ್ಯ ವೃತ್ತಯೇ ನಮಸ್ತೆ ಜಗತಾಂ ಪತ್ಯೇ ಲಕ್ಷ್ಮೀ ಭರ್ತ್ರೇ ನಮೋ ನಮಃ ವಿದಾಂವರ ನಮಸ್ತುಭ್ಯಂ ನಮಸ್ತೆ ವದತಾಂವರ ಕಾಮಶತ್ರುಹಣಂ ದೇವ ಮಾಮನಂತಿ ಮನೀಷಿಣಃ ತ್ವಾಮಾನಮತ್ಸುರೈಂ ಮೌಲೀ ಭಾಮಾಲಾಭ್ಯರ್ಚಿತಕ್ರಮಂ ಧ್ಯಾನದ್ರುಹಣ ನಿರ್ಭಿನ್ನ ಘನಘಾತಿ ಮಹಾತರು ಅನಂತ ಭವ ಸಂತಾನ ಜಯಾದಾಸೀರನಂತಜಿತ್ ತ್ರೈಲೋಕ್ಯ ನಿರ್ಜಯಾವಾಪ್ತ ದುರ್ದರ್ಪ ಮತಿ ದುರ್ಜಯಂ ಮೃತ್ಯುರಾಜಂ ವಿಜಿತ್ಯಾಸಿ ಜಿನ ಮೃತ್ಯುಂಜಯೋ ಭವಾನ್ ವಿಧೂತಾಶೇಷ ಸಂಸಾರ ಬಂಧನೋ ಭವ್ಯ ಬಾಂಧವ ತ್ರಿಪುರಾರಸ್ವಮೀವಾಸಿ ಜನ್ಮ ಮೃತ್ಯು ಜರಾಂತಕೃತ್ ತ್ರಿಕಾಲ ವಿಷಯಾಶೇಷ ತತ್ವಭೇದಾತ್ರಿಧೋತ್ಥಿತಂ ಕೇವಲಾಖ್ಯಂ ದಧಚ್ಚಕ್ಷುಸ್ ತ್ರಿನೇತ್ರೋಸಿ ತ್ವಮೀಶಿತಃ ತ್ವಾಮಂಧಕಾಂತಕಂ ಪ್ರಾಹುರ್ ಮೋಹಾಂಧಾಸುರಮರ್ದನಾತ್ ಅರ್ಧಂತೆ ನಾರಯೋ ಯಸ್ಮಾದರ್ಧ ನಾರೀಶ್ವರೋಸ್ಯತಃ ಶಿವಃ ಶಿವಪದಾಧ್ಯಾಸಾದ್ ದುರಿತಾರಿಹರೋಹರಃ ಶಂಕರಃ ಕೃತಶಂಲೋಕೇ ಶಂಭವಸ್ತ್ವಂ ಭವನ್ ಸುಖೇ ವೃಷಭೋಸಿ ಜಗಜ್ಜೇಷ್ಠಃ ಪುರುಃ ಪುರುಗುಣೋದಯೈಃ ನಾಭೇಯೋ ನಾಭಿಸಂಭೂತೇ ಋಕ್ಷ್ವಾಕುಕುಲನಂದನಃ ತ್ವಮೇಕಃ ಪುರುಷಸ್ಕಂಧಸ್ ತ್ವಂದ್ವೇ ಲೋಕಸ್ಯ ಲೋಚನೆ ತ್ವಂತ್ರಧಾ ಬುದ್ಧಸನ್ಮಾರ್ಗಸ್ ತ್ರಿಜ್ಞಸ್ತ್ರಿಜ್ಞಾನಧಾರಕ ಚತುಃಶರಣಮಾಂಗಲ್ಯ ಮೂರ್ತಿಸ್ತಂಚತುರಸ್ರಧೀಃ ಪಂಚಬ್ರಹ್ಮಮಯೋ ದೇವ ಪಾವನಸ್ತ್ವಂ ಪುನೀಹಿ ಮಾಂ ಸ್ವರ್ಗಾವತರಣೇ ತುಭ್ಯಂ ಸದ್ಯೋ ಜಾತಾತ್ಮನೇ ನಮಃ ಜನ್ಮಾಭಿಷೇಕ ವಾಮಾಯ ವಾಮದೇವ ನಮೋಸ್ತುತೇ ಸುನಿಷ್ಕ್ರಾಂತಾವಘೋರಾಯ ಪರಂ ಪ್ರಶಮಮೀಯುಷೇ ಕೇವಲ ಜ್ಞಾನ ಸಂಸಿದ್ಧಾ ವೀಶಾನಾಯ ನಮೋಸ್ತುತೇ ಪುರಸ್ತತ್ಪುರುಷತ್ವೇನ ವಿಮುಕ್ತಿಪದಭಾಗಿನೇ ನಮಸ್ತತ್ಪುರುಷಾವಸ್ಥಾಂ ಭಾವಿನೀ ತೇದ್ಯ ಬಿಭ್ರತೆ ಜ್ಞಾನಾವರಣ ನಿರ್ಹ್ರಾಸಾನ್ ನಮಸ್ತೆ ನಂತ ಚಕ್ಷುಷೇ ದರ್ಶನಾವರಣೋಚ್ಛೇದಾನ್ ನಮಸ್ತೆ ನಂತ ದೃಶ್ವನೇ ನಮೋ ದರ್ಶನ ಮೋಹಗ್ನೇ ಕ್ಷಾಯಿಕಾಮಲದೃಷ್ಟಯೇ ನಮಶ್ಚಾರಿತ್ರ ಮೋಹಗ್ನೇ ವಿರಾಗಾಯ ಮಹೌಜಸೆ ನಮಸ್ತೆ ನಂತ ವೀರ್ಯಾಯ ನಮೋ ನಂತ ಸುಖಾತ್ಮನೆ ನಮಸ್ತೆ ನಂತ ಲೋಕಾಯ ಲೋಕಾಲೋಕಾವಲೋಕಿನೆ ನಮಸ್ತೆ ನಂತ ದಾನಾಯ ನಮಸ್ತೆ ನಂತ ಲಬ್ಧಯೇ ನಮಸ್ತೆ ನಂತ ಭೋಗಾಯ ನಮೋ ನಂತೋಪಭೋಗಿನೆ ನಮಃ ಪರಮಯೋಗಾಯ ನಮಸ್ತುಭ್ಯಮಯೋನಯೇ ನಮಃ ಪರಮಪೂತಾಯ ನಮಸ್ತೆ ಪರಮರ್ಷಯೇ ನಮಃ ಪರಮವಿದ್ಯಾಯ ನಮಃ ಪರಮತಚ್ಛಿದೇ ನಮಃ ಪರಮತತ್ವಾಯ ನಮಸ್ತೆ ಪರಮಾತ್ಮನೆ ನಮಃ ಪರಮರೂಪಾಯ ನಮಃ ಪರಮತೇಜಸೇ ನಮಃ ಪರಮಮಾರ್ಗಾಯ ನಮಸ್ತೆ ಪರಮೇಷ್ಠಿನೆ ಪರಮರ್ಧಿಜುಷೇ ಧಾಮ್ನಿ ಪರಮಜ್ಯೋತಿಷೇ ನಮಃ ನಮಃ ಪಾರೇ ತಮಃ ಪ್ರಾಪ್ತ ಧಾಮ್ನಿ ಪರತರಾತ್ಮನೆ ನಮಃ ಕ್ಷೀಣಕಲಂಕಾಯ ಕ್ಷೀಣಬಂಧ ನಮೋಸ್ತುತೇ ನಮಸ್ತೆ ಕ್ಷೀಣಮೋಹಾಯ ಕ್ಷೀಣದೋಷಾಯ ತೇ ನಮಃ ನಮಃ ಸುಗತಯೇ ತುಭ್ಯಂ ಶೋಭನಾಂ ಗತಿಮೀಯುಷೇ ನಮಸ್ತೇತೀಂದ್ರಿಯಜ್ಞಾನ ಸುಖಾಯಾನಿಂದ್ರಿಯಾತ್ಮನೇ काय बंधन निर्मोक्षा दकायाय नमोस्तुते। नमस्तुभ्यम योगाय योगिनामधियोगिने। अवेदाय नमस्तुभ्य मकशायाय ते नमः। नमः परम योगींद्र वंदितांघ्रिद्वयाय ते। नमः परम विज्ञान, नमः परम संयम, नमः परम दृग्दृष्ट परमार्थाय तायिने। नमस्तुभ्यमलेश्याय शुद्धलेश्यांशकस्पृशे। नमो भव्येतरावस्था व्यतीताय विमोक्षिणे। संज्ञसंज्ञिद्वयावस्था व्यतिरिक्तामलात्मने। नमस्ते वीतसंज्ञाय, नमः क्षायिकदृष्टये। अनाहाराय तृप्ताय नमः परमभाजुषे। व्यतीताशेषदोषाय भवाब्धेः पारमीयुषे। अजराय नमस्तुभ्यं नमस्तेस्तादजन्मने। अमृत्यवे नमस्तुभ्य मचलायाक्षरात्मने। अलमास्तांगुणस्तोत्र मनन्तास्तावका गुणाः। त्वां नाम स्मृतिमात्रेण पर्युपासिसि शामहे। एवं स्तुत्वा जिनं देवं भक्त्या परमया सुधीः। पठेदष्टोत्तरं नाम्नां सहस्रं पापशान्तये। इति जिनसहस्रनामस्तोत्र प्रस्तावना। प्रसिद्धाष्टसहस्रेद्ध लक्षणं त्वांगिरां पतिं। नाम्नामष्टसहस्रेण तोष्टुमोभीष्टसिद्धये। श्रीमान् स्वयं भूर्वृषभः शम्भवः शम्भुरात्मभूः। स्वयं प्रभः प्रभुर्भोक्ता विश्वभूरपुनर्भवः। विश्वात्मा विश्वलोकेशो विश्वतश्चक्षुरक्षरः। विश्वविद्विश्वविद्येशो विश्वयोनिरनश्वरः। विश्वदृश्वा विभुर्धाता विश्वेशो विश्वलोचनः। विश्वव्यापी विधिर्वेदाः शाश्वतो विश्वतो मुखः। विश्वकर्मा जगज्येष्ठो विश्वमूर्तिर्जिनेश्वरः। विश्वदृग्विश्वभूतेशो विश्वज्योतिरनीश्वरः। जिनो जिष्णुरमेयात्मा विश्वरीशो जगत्पतिः। अनन्तजिदचिन्त्यात्मा भव्यबन्धुरबन्धनः। युगादिपुरुषो ब्रह्मा पञ्चब्रह्ममयः शिवः। परः परतरः सूक्ष्मः परमेष्ठी सनातनः। स्वयं ज्योतिरजो जन्मा ब्रह्मयोनिरयो निजः। मोहारिर्विजयी जेता धर्मचक्री दयाध्वजः। प्रशान्तारिरनन्तात्मा योगी योगीश्वरार्चितः। ब्रह्मविद्ब्रह्मतत्त्वज्ञो ब्रह्मोद्या विद्यतीश्वरः। सिद्धो बुद्धः प्रबुद्धात्मा सिद्धार्थः सिद्धशासनः। सिद्धसिद्धान्तविध्येयः सिद्धसाध्यो जगद्धितः। सहिष्णुरच्युतोऽनन्तः प्रभविष्णुर्भवोद्भवः। प्रभुष्णुरजरो जर्यो भ्राजिष्णुर्धीश्वरो व्ययः। विभावसुरसम्भूष्णुः त्वयं भूष्णुः पुरातनः। परमात्मा परं ज्योतिस्त्रिजगत् परमेश्वरः। इति श्रीमदादिशतम्। दिव्यभाषापतिर्दिव्यः पूतवाक्पूतशासनः। पूतात्मा परमज्योतिर्धर्माध्यक्षो दमीश्वरः। श्रीपतिर्भगवानर्हन् नरजा विरजाः शुचिः। तीर्थकृत् केवलीशानः पूजार्हः स्नातकोमलः। अनन्तदीप्तिर्ज्ञानात्मा स्वयं बुद्धः प्रजापतिः मुक्तः शक्तो निराबाधो निष्कलो भुवनेश्वरः निरञ्जनो जगज्योतिर्निरुक्तोक्तिर्निरामयः अचलस्थितिरक्षोभ्यः कूटस्थः स्थाणुरक्षयः अग्रणीर्ग्रामणीर्नेता प्रणेता न्यायशास्त्रकृत् शास्ताधर्मपतिर्धर्म्यो धर्मात्मा धर्मतीर्थकृत् वृषध्वजो वृषाधीशो वृषकेतुर्वृषायुधः वृषो वृषपतिर्भर्ता वृषभाङ्को वृषोद्भवः हिरण्यनाभिर्भूतात्मा भूतभृद्भूतभावनः प्रभवो विभवो भास्वान् भवो भावो भवान्तकः हिरण्यगर्भः श्रीगर्भः प्रभूतविभवो भवः स्वयं प्रभु प्रभूतात्मा भूतनाथो जगत्प्रभुः सर्वादिः सर्वदिक्सार्वः सर्वज्ञः सर्वदर्शनः सर्वात्मा सर्वलोकेशः सर्ववित् सर्वलोकजित् सुगतिः सुश्रुतः सुश्रुत् सुवाक्सूरिर्बहुश्रुतः विश्रुतो विश्वतः पादो विश्वशीर्षः शुचिश्रवाः सहस्रशीर्षः क्षेत्रज्ञः सहस्राक्षः सहस्रपात् भूतभव्यभवद्भर्ता विश्वविद्यामहेश्वरः इति दिव्यादिशतम्। सविष्ठः सविरो ज्येष्ठः प्रष्ठः प्रेष्ठो वरिष्ठधीः तेष्ठो गरिष्ठो वङ्गिष्ठः श्रेष्ठो निष्ठो गरिष्ठगीः विश्वभृद्विश्वसृड्विश्वेट् विश्वभुग्विश्वनायकः विश्वासी विश्वरूपात्मा विश्वजिद्विजितान्तकः विभावो विभयो वीरो विशोको विजरो जरन् विरागो विरतो सङ्गो विविक्तो वीतमत्सरः विनेयजनताबन्धुर् विलीनाशेषकल्मषः वियोगो योगविद्विद्वान् विधाता सुविधिः सुधीः क्षान्तिभाक् पृथिवीमूर्तिः शान्तिभाक् सलिलात्मकः वायुमूर्तिरसङ्गात्मा वह्निमूर्तिरधर्मधक् सुयज्ज्वायजमानात्मा सुत्वा सुत्रामपूजितः ऋत्विग्यज्ञपतिर्यज्ञो यज्ञाङ्गममृतं हविः व्योममूर्तिरमूर्तात्मा निर्लेपो निर्मलोचलः सोममूर्तिः सुसौम्यात्मा सूर्यमूर्तिर्महाप्रभः मन्त्रविन्मन्त्रकृन्मन्त्री मन्त्रमूर्तिरनन्तगः स्वतन्त्रस्तन्त्रकृत्स्वन्तः कृतान्तान्तः कृतान्तकृत् कृतीकृतार्थः सत्कृत्यः कृतकृत्यः कृतक्रतुः नित्यो मृत्युञ्जयो मृत्यु रमृतात्मा मृतोद्भवः ब्रह्मनिष्ठः परं ब्रह्म ब्रह्मात्मा ब्रह्मसम्भवः महाब्रह्मपतिर्ब्रह्मेट् महाब्रह्मपदेश्वरः सुप्रसन्नः प्रसन्नात्मा ज्ञानधर्मदमप्रभुः प्रशमात्मा प्रशान्तात्मा पुराणपुरुषोत्तमः इति सविष्टादिशतम्। महाशोकध्वजो शोकः कः स्रष्टा पद्मविष्टरः पद्मेशः पद्मसम्भूतिः पद्मनाभिरनुत्तरः पद्मयोनिर्जगद्योनि ऋत्यः स्तुत्यः स्तुतीश्वरः स्तवनार्हो हृषीकेशो जितजेयः कृतक्रियः गणाधिपो गणज्येष्ठो गण्यः पुण्यो गणाग्रणीः गुणाकरो गुणाम्भोधिर्गुणज्ञो गुणनायकः गुणादरी गुणोच्छेदी, निर्गुणः पुण्यगीर्गुणः, शरण्यः पुण्यवाक्पूतो, वरेण्यः पुण्यनायकः, अगण्यः पुण्यधीर्गुण्यः, पुण्यकृत्पुण्यशासनः, धर्मारामो गुणग्रामः, पुण्यापुण्यनिरोधकः, पापापेतो विपापात्मा, विपाप्मा वीतकल्मषः, निर्द्वन्द्वो निर्मदः शान्तो, निर्मोहो निरुपद्रवः, निर्निमेषो निराहारो, निष्क्रियो निरुपप्लवः, निष्कलङ्को निरस्तैना, निर्धूतागा निराश्रवः, विशालो विपुलज्योति, रतुलोचिन्त्यवैभवः, सुसंवृतः सुगुप्तात्मा, सुभुत् सुनयतत्त्ववित्, एकविद्यो महाविद्यो, मुनिः परिवृढः पतिः, धीशो विद्यानिधिः साक्षी, विनीता विहतान्तकः, पिता पितामहः पाता, पवित्रः पावनो गतिः, त्राता भिषग्वरो वर्यो, वरदः परमः पुमान्, कविः पुराणपुरुषो, वर्षीयान् ऋषभः पुरुः, प्रतिष्ठा प्रसवो हेतुर् भुवनैक पितामहः, इति महादिशतम्। श्रीवृक्षलक्षणः श्लक्ष्णो, लक्षण्यः शुभलक्षणः, निरक्षः पुण्डरीकाक्षः, पुष्कलः पुष्करेक्षणः, सिद्धिदः सिद्धसङ्कल्पः, सिद्धात्मा सिद्धसाधनः, बुद्धबोध्यो महाबोधिर्वर्धमानो महर्धिकः, वेदाङ्गो वेदविद्वेद्यो, जातरूपो वेदांवरः, वेदवेद्यः स्वसंवेद्यो, विवेदो वदतांवरः, अनादिनिधनो व्यक्तो, व्यक्तवाक् व्यक्तशासनः, युगादिकृद्युगाधारो, युगादिर्जगदादिजः, अतीन्द्रो तीन्द्रियोधीन्द्रो, महेन्द्रो तीन्द्रियार्थदृक्, अनिन्द्रियो हमिन्द्रार्च्यो, महेन्द्रमहितो महान्, उद्भवः कारणं कर्ता, पारगो भवतारकः, अगायो गहनं गुह्यं, परार्ध्यः परमेश्वरः, अनन्तर्धिरमेयर्धि, रचिन्त्यर्धिः समग्रधीः, प्राग्र्यः प्राग्रहरोऽभ्यग्रः, प्रत्यग्रोऽग्र्योऽग्रिमोऽग्रजः, महातपा महातेजा, महोदर्को महोदयः, महायशा महाधामा, महासत्त्वो महाधृतिः, महाधैर्यो महावीर्यो, महासम्पन्महाबलः, महाशक्तिर्महाज्योतिर्महाभूतिर्महाद्युतिः, महामतिर्महानीतिर्महाक्षान्तिर्महादयः, महाप्राज्ञो महाभागो, महानन्दो महाकविः, महामहामहाकीर्तिर् महाकान्तिर्महावपुः, महादानो महाज्ञानो, महायोगो महागुणः, महामहपतिः प्राप्त, महाकल्याणपञ्चकः, महाप्रभुर्महाप्राति, हर्याधीशो महेश्वरः, इति श्रीवृक्षादिशतम्। महामुनिर्महामौनी, महाध्यानो महादमः, महाक्षमो महाशीलो, महायज्ञो महामखः, महाव्रतपतिर्मह्यो, महाकान्तिधरोधिपः, महामैत्रीमयो मेयो, महोपायो महोमयः, महाकारुणिको मन्ता, महामन्त्रो महायतिः, महानादो महाघोषो, महेज्यो महसाम्पतिः, महाध्वरधरो धुर्यो महोदार्यो महिष्ठवाक् महात्मा महसान्धाम महर्षिर्महितोदयः महाक्लेशांकुशः शूरो महाभूतपतिर्गुरुः महापराक्रमो नन्तो महाक्रोधरिपुर्वशी महाभवाब्धिसंतारी महामोहाद्रिसूदनः महागुणाकरः क्षान्तो महायोगीश्वरः शमी महाध्यानपतिर्ध्यात महाधर्मा महाव्रतः महाकर्मारिहात्मज्ञो महादेवो महेशिता सर्वक्लेशापहः साधुः सर्वदोषहरो हरः असंख्येयो प्रमेयात्मा क्षमात्मा प्रशमाकरः सर्वयोगीश्वरो चिन्त्यः श्रुतात्मा विष्टरश्रवाः दान्तात्मा दमतीर्थेषु योगात्मा ज्ञानसर्वगः प्रधानमात्मा प्रकृतिः परमः परमोदयः प्रक्षीणबन्धः कामारिः क्षेमकृत्क्षेमशासनः प्रणवः प्रणयः प्राणः प्राणदः प्राणतेश्वरः प्रमाणं प्रणिधिर्दक्षो दक्षिणोध्वर्युरध्वरः आनन्दो नन्दनो नन्दो वन्द्यो निन्द्योऽभिनन्दनः कामः कामदः काम्यः कामधेनुररिञ्जयः इति महामुन्यादिशतम्। असंस्कृतसुसंस्कारः प्राकृतो वैकृतान्तकृत् अन्तकृत्कान्तगुःकान्तश् चिन्तामणिरभीष्टदः अजितोजितकामारि रमितो मितशासनः जितक्रोधो जितामित्रो जितक्लेशो जितान्तकः जिनेन्द्रः परमानन्दो मुनीन्द्रो दुन्दुभिस्वनः महेन्द्रवन्द्यो योगीन्द्रो यतीन्द्रो नाभिनन्दनः नाभेयो नाभिजो जातः सुव्रतो मनुरुत्तमः अभेद्यो नत्ययो नाश्वा नधिकोऽधिगुरुः सुगीः सुमेधाविक्रमी स्वामी दुराधर्षो निरुत्सुकः विशिष्टः शिष्टभुक्षिष्टः प्रत्ययः कामनो नघः क्षेमी क्षेमङ्करो क्षय्यः क्षेमधर्मपतिः क्षमी अग्राह्यो ज्ञाननिग्राह्यो ध्यानगम्यो निरुत्तरः सुकृतीधातुरिज्यार्हः सुनयश्चतुराननः श्रीनिवासश्चतुर्वक्त्रः चतुरास्यश्चतुर्मुखः सत्यात्मा सत्यविज्ञानः सत्यवाक्सत्यशासनः सत्याशीः सत्यसन्धानः सत्यः सत्यपरायणः स्थेयांस्तवीयान्नेदीयान् दवीयान् दूरदर्शनः अणोरणीयानननुर्गुरुराद्यो गरीयसाम् सदा योगः सदा भोगः सदा तृप्तः सदा शिवः सदा गतिः सदा सौख्यः सदा विद्यः सदोदयः सुघोषः सुमुखः सौम्यः सुखदः सुहितः सुहृत् सुगुप्तो गुप्तिभृद्गुप्ता लोकाध्यक्षो दमेश्वरः इति असंस्कृतादिशतम्। बृहद्बृहस्पतिर्वाग्मी वाचस्पतिरुदारधीः मनीषी धिषणो धीमान् क्षेमशीशो गिरां पतिः नैकरूपो नयोत्तुङ्गो नैकात्मा नैकधर्मकृत् अविज्ञेयो प्रतर्क्यात्मा कृतज्ञः कृतलक्षणः ज्ञानगर्भो दयागर्भो रत्नगर्भः प्रभास्वरः पद्मगर्भो जगद्गर्भो हेमगर्भः सुदर्शनः लक्ष्मीवांस्त्रिदशाध्यक्षो द्रढ़ी यानिन ईशिता मनोहरो मनोज्ञांगो धीरो गंभीर शासनः धर्मयूपो दयायागो धर्मनिमिर्मुनीश्वरः धर्मचक्रायुधो देवः कर्महाधर्मघोषणः अमोघवागमोघाज्ञो निर्ममो मोघशासनः सुरूपः सुभगस्त्यागी समयज्ञः समाहितः सुस्थितः स्वास्थ्यभाक्स्वस्थो नीरजस्को निरुद्धवः अलेपो निष्कलंकात्मा वीतरागो गतस्पृहः वश्येन्द्रियो विमुक्तात्मा निःसपत्नो जितेन्द्रियः प्रशांतो नन्तधामर्षिर्मङ्गलं मलहानयः अनीद्रगुपमा भूतो दिष्टिर्दैवमगोचरः अमूर्तो मूर्तिमानेको नैको नानैकतत्त्वदृक् अध्यात्मगम्यो गम्यात्मा योगविद्योगिवन्दितः सर्वत्र गः सदा भावी त्रिकालविषयार्थदृक् शङ्करः संवदो दान्तो दमी क्षान्तिपरायणः अधिपः परमानन्दः परात्मज्ञः परात्परः त्रिजगद्वल्लभोऽभ्यर्च्यस् त्रिजगन्मङ्गलोदयः त्रिजगत्पतिपूज्याङ्घ्रिस् त्रिलोकाग्रशिखामणिः इति बृहदादिशतम्। त्रिकालदर्शी लोकेशो लोकधाता दृढव्रतः सर्वलोकातिगः पूज्यः सर्वलोकैकसारथिः पुराणः पुरुषः पूर्वः कृतपूर्वाङ्गविस्तरः आदिदेवः पुराणाद्यः पुरुदेवोऽधिदेवता युगमुख्यो युगज्येष्ठो युगादिस्थितिदेशकः कल्याणवर्णः कल्याणः कल्यः कल्याणलक्षणः कल्याणप्रकृतिर्दीप्र कल्याणात्मा विकल्मषः विकलङ्कः कलातीतः कलिलग्नः कलाधरः देवदेवो जगन्नाथो जगद्बन्धुर्जगद्विभुः जगद्धितैषी लोकज्ञः सर्वगो जगदग्रजः चराचरगुरुर्गोप्यो गूढात्मा गूढगोचरः सद्यो जातः प्रकाशात्मा ज्वलज्ज्वलनसप्रभः आदित्यवर्णो भर्माभ सुप्रभः कनकप्रभः सुवर्णवर्णो रुक्माभ सूर्यकोटिसमप्रभः तपनीयनिभस्तुङ्गो बालार्काभो नलप्रभः सन्ध्याभ्रबभ्रुर्हेमाभस्तप्तचामीकरच्छविः निष्टप्तकनकच्छायः कनककाञ्चनसन्निभः हिरण्यवर्णः स्वर्णाभः शातकुम्भनिभप्रभः द्युम्नाभोजातरूपाभस्तप्तजाम्बूनदद्युतिः सुधौतकलधौतश्रीः प्रदीप्तो हाटकद्युतिः शिष्टेष्टः पुष्टिदः पुष्टः स्पष्टः स्पष्टाक्षरः क्षमः शत्रुघ्नो प्रतिघो मोघः प्रशास्ता शासिता स्वभूः शान्तिनिष्ठो मुनिज्येष्ठः शिवदातिः शिवप्रदः शान्तिदः शान्तिकृच्छान्तिः कान्तिमान् कामितप्रदः श्रेयो निधिरधिष्ठान मप्रतिष्ठः प्रतिष्ठितः सुस्थिरः स्थावरः स्थास्नुः प्रथीयान् प्रथितः पृथुः इति त्रिकालदर्श्यादिशतम्। दिग्वासावातरशनो निर्ग्रन्थेशो निरम्बरः निष्किञ्चनो निराशंसो ज्ञानचक्षुरमो मुहः तेजो राशिरनन्तौ जा ज्ञानाब्धि शील सागर तेजो मयो मित ज्योतिर् ज्योतिर्मूर्तिस्तमोपह जगच्चूडामणिर्दीप्तः शम्वान् विघ्नविनायकः कलिघ्नः कर्मशत्रुघ्नो लोकालोकप्रकाशकः अनिद्रालुरतन्द्रालुर्जागरूकः प्रमामयः लक्ष्मीपतिर्जगज्ज्योतिर्धर्मराजः प्रजाहितः मुमुक्षुर्बन्धमोक्षज्ञो जिताक्षो जितमन्मथः प्रशान्तरसशैलूषो भव्यपेटकनायकः मूलकर्ताखिलज्ज्योतिर्मलघ्नो मूलकारणः आप्तो वागीश्वरः श्रेयान् श्रायसोक्तिर्निरुक्तवा प्रवक्ता वचसामीशो मारजिद्विश्वभाववित् सुतनस्तननिर्मुक्तः सुगतो हतदुर्नयः श्रीशः श्रीश्रितपादाब्जो वीतभीरभयङ्करः उत्सन्नदोषो निर्विघ्नो निश्चलो लोकवत्सलः लोकोत्तरो लोकपतिर्लोकचक्षुरपारधीः धीर्धीर्बुद्धसन्मार्गः शुद्धः सूनृतपूतवा प्रज्ञापारमितः प्राज्ञो यतिर्नियमितेन्द्रियः भदन्तो भद्रकृद्भद्रः कल्पवृक्षो वरप्रदः समुन्मूलितकर्मारिः कर्मकाष्ठाशुशुक्षणिः कर्मण्यः कर्मठः प्रांशुर्हेयादेयविचक्षणः अनन्तशक्तिरच्छेद्यस्त्रिपुरारिस्त्रिलोचनः त्रिनेत्रस्त्र्यम्बकस्त्र्यक्षः केवलज्ञानवीक्षणः समन्तभद्रः शान्तारिर्धर्माचार्यो दयानिधिः सूक्ष्मदर्शी जितानङ्गः कृपालुर्धर्मदेशकः शुभञ्जुः सुखसाद्भूतः पुण्यराशिरनामयः धर्मपालो जगत्पालो धर्मसाम्राज्यनायकः इति दिग्वासाद्यष्टोत्तरशतम्। धाम्नां पतेतवामूनि नामान्यागमकोविदैः समुच्चितान्यनुध्यायन् पुमान्पूतस्मृतिर्भवेत् गोचरोऽपि गिरामासां त्वमवाग्गोचरो मतः तोता तथाप्यसन्दिग्धं तत्तो भीष्टफलं भजे त्वमतोऽसि जगद्बन्धुस्त्वमतोऽसि जगद्भिषक् त्वमतोऽसि जगद्धाता त्वमतोऽसि जगद्धितः त्वमेकं जगतां ज्योतिस्त्वन्द्विरूपोपयोगभाक् तन्त्ररूपैकमुक्त्यङ्गं स्वोत्थानन्तचतुष्टयः त्वं पञ्चब्रह्मतत्त्वात्मा पञ्चकल्याणनायकः षड्भेदभावतत्त्वज्ञस्त्वं सप्तनयसङ्ग्रहः दिव्याष्टगुणमूर्तिस्त्वं नवकेवललब्धिकः दशावतारनिर्धार्यो मां पाहि परमेश्वर युष्मन्नामावली दृग्ध विलसत् स्तोत्रमालया भवन्तं परिवस्यामः प्रसीदानुगृहाणनः इदं स्तोत्रमनुस्मृत्य पूतो भवति भाक्तिकः यः सम्पाठं पठत्तेनं तस्यात्कल्याणभाजनं ततः सदेदं पुण्यार्थी पुमान् पठतु पुण्यधीः पौरुहूतीं श्रियं प्राप्तुं परमामभिलाषुकः स्तुतिः पुण्यगुणोत्कीर्तिः स्तोता भव्यः प्रसन्नधीः निष्ठितार्थो भवान् स्तुत्यः फलं नैः श्रेयसं सुखम्। यः स्तुत्यो जगतां त्रयस्य न पुनः स्तुता स्वयं कस्यच धियो योगी जनस्य यश्चनतरा ध्याता स्वयं कस्यच यो नन्त्रीं नयते नमस्कृतिमलं नन्तव्यपक्षेक्षण सश्रीमान् जगतां त्रयस्य च गुरु देवः पुरुः पावनः तन्देवं त्रिदशाधिपार्जितपदं घातिक्षयानन्तरं प्रोत्थानन्तचतुष्टयं जिनमिनं भव्याब्जिनीनामिनं मानस्तंभ विलोकनानत जगन मान्यं त्रिलोकीपतिं प्राप्ता चिंत्य बहिर्विभूति मनघं भक्त्या प्रवन्दामहि भक्त्या प्रवन्दामहि भक्त्या प्रवन्दामहि इति श्रीमज्जिनसहस्रनामस्तोत्रम्।